सर्वेभ्यो नमस्कारः। सिद्धान्तकौमुद्याः जन्तपुल्लिङ्गप्रकरणे सप्तदशः भागः, फेब्रवरि मासस्य एकविंशः दिनाङ्कः। येनाक्षरसमां नायमधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं। मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। हरिशब्दस्य प्रक्रियाम् अधीतवन्तः। हरिशब्दः इकारान्तः पुल्लिङ्गः, तस्य विशिष्टा काचन संज्ञा विद्यते, घि संज्ञा, शेषोभ्यसखि इति सूत्रेण हरिशब्दस्य घि इति संज्ञा विधीयते। घिसंज्ञा प्रयुक्तानि कार्याणि कानि? विच् आर् द कार्यस् विच् डिपेण्ड् एक्स्क्लूसिव्लि आन् द घि संज्ञा? लिस्ट् देम् औट्। ऐ मीन् वि डिड् लाट् आफ़् डिफ़रेण्ट् टैप्स् आफ़् कार्यस् फार् हरिशब्द मङ्ग्लोस्, विच् आर् दोस् विच् डिपेण्ड् एक्स्क्लूसिव्लि आन् द आन् हरिशब्द हेविङ्ग् द संज्ञा काल्ड् घि? Anybody? Vasuji? Haan. Gher Niti. Okay. Haan. Achcha Ghe hai. Okay. Only two? We have not covered Achvaniti yet, I think. I mean, it was there in my notes, but we haven't covered Achvaniti yet. Yeah. The third one is... okay. Priya, give the answer. Vasudha? Exactly. Angonastriya. So there are three karyas which depend on Ghisamya. One is Angonastriya. Tritiya Vibhaktav Ekavachane. Ang. Ta Ityasyaha. ता इत्यस्य प्रत्ययस्य स्थाने नाभावः। ततः घेर् निति, ङित्सु प्रत्ययेषु परेषु गुणः, अच्चघेः, ङि प्रत्ययस्य औत् आदेशः, घेश्च अकारः अन्तादेशः इति त्रीणि कार्याणि घिसंज्ञा प्रयुक्तान्येव। तदतिरिच्य अन्यानि अपि कानिचन विशिष्टानि कार्याणि। ह्रस्वान्तत्वप्रयुक्तानि कार्याणि कानि? वि सॉ टू कार्यस् विच् डिपेण्डेड् आन् द अङ्गविङ्गे ह्रस्वान्त, ह्रस्वान्तस्य अङ्गस्य इत्युक्त्वा कार्यद्वयं विहितम्। किं तत् कार्यद्वयं? विच् वर् द टू कार्यस् विच् डिपेण्डेड् आन् ह्रस्वान्त? वसुधा, जसि च, एक्साक्ट्, हा एक्साक्ट्लि। सो गुणः, उभाभ्यामपि सूत्राध्यां गुणः एव विधीयते। जसि च इत्यनेन ह्रस्वान्तस्य अङ्गस्य जसिपरे गुणः भवति। ह्रस्वस्य गुणः इत्यनेनापि सम्बुद्धौ परतः ह्रस्वान्तस्य अङ्गस्य गुणो भवति। सो दीस् टु कार्यस् विल् हेपन् फार् एनीथिङ्ग् विच् हेपन्स् टु बि ह्रस्वान्त। नेक्स्ट्, ङसिङसोश्च इत्यपि विशिष्टं कार्यमासीत्। ङसि परे, ङसि प्रत्यये परे, ङस् प्रत्यये परे च गुणे कृते, घेर्णिति इत्यनेन गुणः भवति ङित्वात्, गुणे कृते हरे अस् इति स्थिते ङसिङसोश्च इत्यनेन पूर्वरूपं भवति हरेस्, ततः गुणे हरेः। सो दीस् वर् सम् आफ़् द स्पेशल् थिङ्ग्स् विच् हेपण्ड् वित् हरि। सो इन् जस् वी हेव् जसिच इति गुणः, सम्बुद्धौ ह्रस्वस्य गुणः, तृतीयैकवचने आङ्गोनास्त्रियामिति नाभावः हरिणा, चतुर्थ्येकवचने घेर्ङिति इति गुणः हरये, पञ्चम्येकवचने घेर्ङिति इति गुणः नसिंहसोष्ठ इति पूर्वरूपं हरेः, एवमेव षष्ठीकवचने. सप्तम्येकवचने अच्छघेः इति औकारः अकारश्च अन्तादेशः. सो दीस् वर् द वन्स् विच् वि स्टडी न्यूली फार् हरिशब्द. सो आल् अदर् कार्यस् वर् वाट् वी हेड् इन् अदर् केसस्. से हरीन् इस् लैक् रामान्, हरिषु इस् लैक् रामेषु, हरीणाम् इस् लैक् रामाणाम् एट्सेट्रा. So now we go to a second shabda in Ikarantas, which is the Sakhi shabda. Okay. So as we know the pattern already, what Dikshita does it, he gives the Sadharana shabda first and then goes on dealing with the Vishesha shabdas and how they vary from the main shabda. Okay. So Hari shabdaha adhitaha, idanim Sakhi shabdaha, Ikarantaha pullingaha, Sakhi shabdaha, Suhrat iti arthaha, it means friend, right? Sakhi is a pullinga, which means a friend. इदानीं सखिशब्दस्य को विशेषः इति प्रश्ने आदौ घिसंज्ञा नास्ति इति प्रथमः विशेषः. हरि इति शब्दस्य घि इति संज्ञा विद्यते, तेन तत्प्रयुक्तानि त्रीणि कार्याणि दृष्टानि. आङ्गोनास्त्रियां घेर्णीते अचघेः तत् कार्यत्रयमपि अत्र न भवति. शेषो घि असखि, सखिशब्दस्य घिसंज्ञा नास्ति इत्युक्तत्वात् तत्प्रयुक्तानि कार्याणि अत्र न भवन्ति इति विशेषः. न केवलं तत्, सखिशब्दमेव उद्दिश्य कानिचन कार्याणि विहितानि. सो पाणिनि हेज़् मेड् अ फ्यू सूत्रास् एक्स्क्लूसिव्लि वित् सखिशब्द इन् हिस् मैण्ड्, दिस् फार् सखिशब्द. ओके. सो नौ सखि इत्यस्मात् सुप्रत्ययः क्रियते. सुप्रत्यये कृते अनङ् सौ इति सूत्रम्. पदद्वयम् अनङ् सौ, अङ्गस्य अधिकारः, सख्युरसम्बुद्धौ इति पूर्णं सूत्रम् अनुवर्तते, प्राक्तनं सूत्रं. सख्युः असम्बुद्धौ सौ, सख्युः नाम सखिशब्दस्य, असम्बुद्धौ सौ. असम्बुद्धौ सुप्रत्यये परे अनङ् इति आदेशः भवति इति सूत्रार्थः. सो डिरैविङ्ग् द सूत्रार्थ इस् वेरि सिम्पल्. इफ् यु जस्ट् कीप् द विभक्तीस् इन् मैण्ड्, सख्युः इस् षष्ठी means for Sakhi Shabda or in place of Sakhi Shabda. Asambuddhau Sau is both Saptami when followed by Supratyaya, which is not Sambuddhi. Anang is Prathama. Anang is the Adesha for Sakhi Shabda. So where should this Adesha come? You have Sakhi. What in Sakhi should Anang replace? Will it replace the whole of Sakhi Shabda? Will it replace a part? If so, which part? How do we decide? Hema? Right. Ha. Antyadesh. Correct. So, Nichcha ityanena antyadesha syat. So actually the general sutra is alantasya. Overruling which we have anekal shit sarvasya. If the adesha is anekal, here the adesha is anekal. An iti adesha ha, anekal eva asti. Kintu nitcha iti sutra se sattvat. Nit adesha ha, ayam api antyasya eva syat. Iti vrattihi. So nit adesha ha, antyadesha ha bhavati. So sutrartha ha bhavati. Sakhyuhu angasya anang adesha ha syat asambuddhau saupare. सूत्रार्थः ङिच्च इति अन्तादेशः, तदपि दीक्षितैरेव दत्तं मूले एव. सो सखि सु इत्यस्ति, इकारः अन्त्यः नाम इकारः, इकारस्य स्थाने अनङ् आदेशः. तत्र ङकारस्य हलन्त्यमिति इत्सम्य, अकारस्य उपदेशयजनुनासिकैत् इति इत्सम्य, उभयोः तस्य लोपः. सो जनरलि इन् आदेशस् वि डु नाट् शो what is it samya. You can show, actually you should, you can say write anang and then show that the two letters are removed by it samya. Finally what remains is an. Okay, so sakh an su, the e is replaced by an. Yeah, sakhan su. Tada kim bhavati chet. I have another sutra. Alontyat purva upadha, alaha antyat purvaha upadha. Upadha iti samya vidhiyate anena sutrena. इदं संज्ञासूत्रं. चत्वारि पदानि सन्ति अलः अन्त्यात् पूर्वः उपधा संज्ञासूत्रम् उपधा इति संज्ञा विधीयते कस्य भवति उपधा संज्ञा अन्त्याद् अलः पूर्वः उपधा संज्ञः स्यात् अन्त्यात् अलः पूर्वः पूर्वः इस् दट् विच् प्रिसीड्स् अन्त्यात् द लास्ट् अल् अल् इस् इति प्रत्याहारः अ इ उण् इत्यत्र अकारादारभ्य हलः लकारपर्यन्तं प्रत्याहारः नाम वर्णः अल् इस् अ प्रत्याहारः विच् इन्क्लूड्स् आल् लेटर्स् इन् द अक्षरसमाम्नाय सो अन्त्याद् अलः पूर्वः द लेटर् विच् प्रिसीड्स् द लास्ट् इस् काल्ड् उपधा सो उपधा इस् द penultimate letter of anything, of the Anga or whatever is being talked about, the last, I mean, the Upottamam, the, not the last, the one which is the letter which precedes the last letter is called Upadha. Okay? So, Antyadalaha Purvovarnaha Upadha Samyaha Syat. Sakhan Su Ityasti Katham Varnachedaha सकारः अकारः खकार अकार नकार सकारः सखन् वि आर् टेकिङ्ग् सखन् इन् टु कन्सिडरेशन् अस् द अङ्ग सो इन् दिस् अङ्ग अङ्गस्य उपधा नाम अकारः द लास्ट् लेटर् इस् न अन्त्यः अल् भवति नकारः नकारात् पूर्वः नाम अकारः तस्य उपधा इति संज्ञा विद्यते सो दिस् अकार विल् बि काल्ड् उपधा वित् रेफरेन्स् टु सखन् वेन् वि आर् टाकिङ्ग् आफ् ओन्ली द अङ्ग If you are taking the whole thing into consideration, then nakara would be the upadha. So whatever we are talking about, in that the letter before the last is called upadha. Okay? So akarasya upadha iti samya vidyate. Kim tena iti chete sarvanamasthane cha asambuddhau. Iti agrimam sutram. Padatrayam sarvanamasthane cha asambuddhau. अङ्गस्य इत्यधिकारः ढलोपे पूर्वस्य दीर्घोणः इति सूत्रात् दीर्घः इति अनुवर्तते नोपधायाः इति सूत्रमपि अनुवर्तते असम्बुद्धौ सर्वनामस्थाने नोपधायाः न उपधायाः उपधायाः नकारस्य दीर्घः इति सूत्रार्थः असम्बुद्धौ सर्वनामस्थाने परे वेन् फालोड् बै अ सर्वनामस्थान विच् इस् नाट् सम्बुद्धि उपधायाः नः द फार् द नक द नकार आफ् द उपधा will be replaced by Dirghaha. The Upadha is replaced by Dirgha. Right. So, Sutrathaha, Nantasya Upadhayaha Dirghaha Syat Asambuddhau Sarvanamasthane Pare. If there is an Akaranta Anga, Tasya Upadhayaha. The Upadha of that Anga will be elongated when followed by a Sarvanamasthana which is not Sambuddhi. What is Sarvanamasthana? सर्वनामस्थानं नाम किम् वसुजी राइट सुट् अनपुंसकस्य सो सिन्स् दिस् इस् नाट् नपुंसकलिङ्ग वी हव् टु टेक् द सूत्र सुट् इति प्रत्याहारः सु औ दस् अम् औट् पञ्चानाम् आदौ पञ्चप्रत्ययानां सर्वनामस्थानम् इति संज्ञा विद्यते सो सर्वनामस्थान सर्वनामस्थाने परे सो वेन् फालोड् बै एनी आफ् द फस्ट् फैव् प्रत्ययास् अदर् दान् सम्बुद्धि अदर् दान् द एकवचन आफ् सम्बोधन प्रथमाविभक्ति नान्तस्य उपधायाः दीर्घः स्यात् An upadha of anakara will get dirgha. That is why Raja, Rajanav, Rajanaha, Rajanam, Rajanav. Rajyaha, Rajyaha, Rajabhyam, ityadi bhavati. Tatras utrapi dirgha na shruyate. You will not hear the dirgha in say Rajabhyam, Rajabhihi, etc. But Raja, Rajanav, Rajanaha. Similarly, Vidvan, Vidvamsav, Vidvamsaha. Mahan, Mahantav, Mahantaha. So this sutra applies in a lot of places. So, Mahan Mahanto might not be the right example for this sutra. There is another sutra which applies. But generally if you have any Nakaranta Shabda, you get Dirgha by this sutra. Right? So, now we have what we have now is not any nakaranta. We have sakhan, where it has become nakaranta because of the anangadesha. Right? So we have sakh an s ityasti, nantam angam asti, tasya upadhanayam asti akaraha, tasya dirghaha bhavati. Sakh an s akarasya sthane dirghaha, sarvanamasthane cha sambuddhau iti sutrena. Right? So the prakriya is still not over. Sakhan s iti sthite. पुनः अन्या काचन संज्ञा ज्ञायते अपृक्त एकाल प्रत्ययः. सो देयर इज अनदर संज्ञा विच वी आर स्टडीइंग नाउ. अपृक्त अपृक्तम इज द संज्ञा बीइंग गिवन. पदत्वयम् इत्युक्ते अपृक्तः एकाल प्रत्ययः. संज्ञासूत्रम् अपृक्तः इति संज्ञा विधीयते. किं नाम अपृक्तम्? एकाल प्रत्ययः यः सः अपृक्तसंज्ञः स्यात्. इट्स वेरी सिंपल. एनी प्रत्यय विच हैज अ सिंगल अल एकहा अल यस्मिन सहा यस्मिन तत. सो दट विच हैज सिंगल अल सिंगल लेटर इज कॉल्ड एकाल. सो इफ अ सफिक्स हैपेंस टू बी एकाल इट विल बी कॉल्ड अपृक्त. ओके. एनी सफिक्स विच हैज बिकम एकाल इट नीड नॉट बी ओरिजिनली एकाल. सो आई मीन यू कैन टेक अवे आफ्टर टेकिंग अवे द अनुबंधास आफ्टर डिलीशन ऑल्सो. इफ देर इज अ प्रत्यय देर आर ओकेशन वेर यू माइट डिलीट अ पार्ट ऑफ इट. Whatever, if only a single letter remains in that pratyaya, at that stage it would be called ekal. It would be called aprakta. Right? So, for example, you have sakhan su su pratyaya hasti ukarasya samya lopabhyam apaharaha sakara eva shishyate. So, this pratyaya has a single letter. Ekaha eva alvidyate sakaraha. Tasmat tasya apraktaha iti samya vidyate. This pratyaya itself is called aprakta. Ekal pratyaya apraktaha. Okay. Now, what is the point of calling it an aprakta? Obviously, there is some karya which will depend on it being aprakta. Halgyabhyo dirgha sutisya praktam hal. Remember the sutra, we'll use it over and over and over. So, this is a standard sutra. In all halantas, we use the sutra. We also use it in स्त्रीलिंगास आकारांत ईकारांत स्त्रीलिंगास एवरीवेर. हल्ञाभ्यः हल् ङी आपभ्यः हल्ञाभ्यः दीर्घात् सु ति सि अपृक्तं हल् इति पञ्चपदानि विद्यन्ते. लोपो व्योर्वलि इत्यतः लोपः इति अनुवर्तते. कः अर्थः? हलन्तात् परं दीर्घौ यौ ज्ञापौ तदन्ताच्च परं सु ति सि इत्येतत् अपृक्तं हल् लुप्यते. त्री प्रत्यय इज बीइंग टोल्ड हियर. सु ति एंड सि. सु इज द सु प्रत्यय इन दिस. सु इज प्रथमा विभक्ति एकवचन प्रत्यय इन अमंग सुबंत स्वादी प्रत्ययेषु. ति सि इति तिङन्त तिङ् प्रत्यय. तिप् सिप् इति श्रूयते. पठति पठसि इत्यत्र यौ प्रत्ययौ स्तः तिप सिप इति तयोः ग्रहणं ती सी. सो सु ती सी दीज थ्री प्रत्ययस अपृक्तम व्हेन दे आर अपृक्त दैट इज व्हेन दे कंसिस्ट ऑफ व्हेन दे हैव द अपृक्त संज्ञा व्हिच मींस दे शुड कंसिस्ट ऑफ अ सिंगल लेटर. राइट. सु इज ऑलवेज अपृक्त बिकॉज द उकार इज ऑलवेज डिलीटेड बाय उपदेश यजनुनासिक इति तस्य लोपः. सो सका सु इज ऑलवेज अपृक्त बट टी एंड सी आर नॉट ऑलवेज अपृक्त. इन पठति यू हियर तकार एंड इकार. देयर आर टू अल्स. इट इज नॉट अपृक्त. सिमिलरली इन पठसि इट इज नॉट अपृक्त. बट व्हेन यू गो टू अभवत् अभवत् इत्यत्र तकारः केवलं तकारः अस्ति प्रत्यये. सः अपृक्तः. एवं अभवः तत्र सकारस्य रुत्वं विसर्गश्च कृतं तथापि सकारः एक एव अस्ति सः अपृक्तः. सो वेन् दीस् हेव् द अपृक्त संज्ञा देन् अपृक्तं हल्. यदा अपृक्तं भवति हल् भवति तस्य लोपः भवति. दट् हल् विल् बि डिलीटेड् वेन् हलन्तात् परम् इफ् इट् इस् प्रिसीडेड् बै अ हलन्त. आल्सो दीर्घौ यौ ज्ञापौ तदन्ताच्च परम्. आल्सो इफ् इट् इस् प्रिसीडेड् बै ङी nyanta, word which is ending in ni pratyaya. Nyanta, if you remember, I have told this, it consists of three stri pratyayas. Trayaha stri pratyayaha santi. Ni, nish, neen, इति तयोः नी इत्यनेन साधारणतया ग्रहणम् नी इस् आल्वेज् इन् व्याकरण इट् इस् आल्वेज् एन् अब्रिवियेशन् फार् नीप् नीश् एण्ड् नीन् सिमिलर्लि आप् इस् आल्वेज् एन् अब्रिवियेशन् फार् टाप् डाप् एण्ड् चाप् आल् आफ् देम् आर् त्री प्रत्ययस् सो दीर्घौ यौ ज्ञापौ सो वेन् प्रिसीडेड् बै इदर् नी आर् आप् प्रत्यय विच् इस् अ दीर्घ सो दिस् सूत्र आक्चुलि हेज़् अ लाट् आफ़् कण्डीशन्स् विल् सी वाट् इस् द सिग्निफिकेन्स् आफ़् ईच् आफ़् दीस् वर्ड्स् लेटर् दलकृत्यं विद्यते महद्दलकृत्यं विद्यते इदानीम् अर्थः कः इफ् देर् इस् अ वर्ड् विच् इस् एण्डिङ्ग् इन् हल् फार् एक्साम्पल् टेक् एनिथिङ्ग् एनि हलन्त से शरत् शब्दः आर् मरुत् एनिथिङ्ग् एनि हलन्त दीर्घौ यौ ज्ञापौ फार् एक्साम्पल् यु हेव् गौरी गौरी इति ञन्तम् ईकारः दीर्घः अस्ति अन्ते अथवा आबन्तं रमा आबन्तं दीर्घः अन्ते विद्यते सो वेन् एनी सच् वर्ड् इस् फालोड् बै इदर् सु ति आर् सि विच् इस् अप्रप्त सो नौ लेट्स् कन्सिडर् द सुप्रत्यय ओके बिकास् इन् आर् नामपदप्रकरण दट् इस् द ओन्ली प्रत्यय विच् इस् हियर् सो वेन् दे आर् फालोड् बै सुप्रत्यय द अपृक्तं हल् सिन्स् दट् सकार हेपन्स् टु बि अपृक्त एण्ड् इट् इस् अ हल् इट् विल् बि डिलीटेड् लुप्यते अत एव मरुत् इत्येव प्रथमान्तं द प्रातिपदिका इस् आल्सो मरुत् प्रथम एकवचन इस् आल्सो मरुत् गौरी शब्दः गौरी इत्येव प्रथम एकवचनं रमा तथैव ओके सो नौ हियर् वाट् डु वि हेव् सखान् स् इत्यस्ति अन्ते हलन्तम् अस्ति सखान् इति नकारान्तं हलन्तं हलन्तात् परं सु इति अपृक्तं हल् लुप्यते That is all we have. So when preceded by a halanta, this aprakta hal of su gets deleted. Halgyabhyaha ityanena sulope sakhan iti siddhyate. Right. So we remove the sakara by halgyabhyo dirgha sutisya praktam hal. What happens next? This sutra which we have already studied. Nalopah pratipadikantasya. Pratipadika samyakam yath padam tadantasya nakarasya lopah syat. Okay, so this sakhan has pratipadika samya because the originally sakhi iti pratipadikam sakhi ityasya antyadeshatvena sakhan iti jatam tasyeva dirghatvena sakhan janim sakhan ityasya sthanivadbhavena pratipadika samya asti supratyah luptah tasya pratyaya lakshanatvena pratyayantattvam supratyayantattvam api asti so it is both pada by suptingantam padam and also pratipadika प्रातिपदिकसंज्ञकं यत् पदं तदन्तस्य नकारस्य तदवयवस्य नकारस्य लोपः स्यात् सो द नकार इस् डिलीटेड् बै नलोपः प्रातिपदिकान्तस्य यु आलरेडी स्टडीड् दिस् सूत्र इन् युष्णा युषभ्यां युषभिः इत्यत्र सो सखा इति प्रथमाविभक्त्येकवचनरूपं द प्रथमाविभक्ति एकवचन फार्म् आफ् सखि शब्द इस् सखा लेट्स् गो थ्रू द स्टेप्स् अगेन् सखि इत्यस्मात् सौजसमोक्षस् इत्यादिना प्रथमैकवचने विवक्षिते सुप्रत्ययः तस्य इकारस्य स्थाने अनङ्सौ इति सूत्रेण अनङ् इति अन्तादेशः सखन् स अकारस्य उपधासंज्ञा अस्ति सर्वनामस्थाने च असम्बुद्धौ नान्तस्य उपधायाः दीर्घः स्यात् असम्बुद्धौ सर्वनामस्थाने परे इति उपधादीर्घः तेन सखान् सु हल्याभ्यो दीर्घात् सुतिस्य प्रक्तं हल् इत्यनेन अस्य सकारस्य लोपः हलः परः सकारः लुप्यते ततः नलोपः प्रातिपदिकान्तस्य इत्यनेन नकारस्य लोपः सखा इति प्रथमाविभक्तौ एकवचने रूपम् एनि डौट् सो फार् एनि क्वश्चन्स् We'll come to it. Yeah. We'll see it next when we see Dalakrityas of this. Okay. Any other questions? Yeah. Okay. let's move on and see a bit about the sutra. Halnyabhyo dirghat sutisya praktam hal. The sutra. Halnyabhya dirghat sutisi apraktam hal. Panchapadani santi. Panchapi padani apekshanteva. Halnyabhya kim. Kimartham halantat param. Nyanta dabantatva param. Iti uchete. Kimartham dijete. Gramanihi. Ikaraha, kevalaha ikaraha asti che, supratyaya se lopo na bhavati. The supratyaya is not deleted, it's just if there is an ikara or an akara. See, we already studied akara anta, it has to be vishvapaha. We did not delete supratyaya. Similarly, gramanihi, lopaha na bhavati. Kevalasya ikarasya akarasya va, ikarantad akarantad vaparasya lopaha na bhavati. Nyantad abantad eva bhavati. Ata eva dattam, gramanihi. Gramam nayati iti vigrahe, grama ityasya ni iti dhatoho, grame upapade kviprateha, nihi nayati iti nihi, gramasya nihi, gramanihi iti bhavati. Gramani su iti sthite, ikarasya nyantatva bhavat sulopo na bhavati. There is an ikara, but the ikara belongs to the dhatu, to the ni dhatu. That is why we do not delete the supratya here. We have rutva visarga to give gramanihi. Evameva vishvapaha tatrapi akarah asti kintu abantatvam nasti tasmad supratyaya lopo na dirghat kim. This is a more interesting question. He said hal nyabhyah halantat param dirghau yo nyapau tadantat cha param iti uktam. Then nyanta, as I said, is neep nish neen. Everything has e as common. Dirgha ikara eva asti yatha gauri kimapi padani santi bahuni padani santi sarvatra ikara eva shruyate kila evameva abantaha tap dap chap sarvatra dirghaha eva akara asti rama sita mala etra kutra ve bhavatu dirgha eva akara. So dirghat iti punaha kimartham vaktavyam. When nyanta or abanta naturally happen to be dirgha, why should we specify dirghat nyantad abantat param? Iti chet nishkaushambihi itu udaharanam samasaha nishklantaha kaushambyaha. Kaushambyaha nishklantaha, he who has come out of kaushambi iti arthe niradayah klantadyarthe panchamya iti vartikena tatpurusha samasaha pradi samasaha nir kaushambi ityasti kaushambi iti nyantam dirghah asti tasya stri pratyayantasya upasarjanatvat arthad gaunatvat. The pada kaushambi is not pradhana here. He who has come out of kaushambi is being referred to, right? So upasarjanatvat nyantasya gostriyor upasarjanasya iti hrasvah kriyate. So the kaushambi, the dirgha, has been truncated to get a hrasva nishkaushambi iti pullingam. Now this is nyanta. Nishkaushambi su iti sthite. Nyantattvam asti kintu dirghattvam nasti. There is no dirgha. So the supratyaya should not be deleted here. Yatra nyantaha dirgha eva asti. When it has not been shortened, then only we delete the supratyaya. That is why he says dirghat. Nishkaushambihi. Evameva atikhatvaha. Ityasti. Khatvam atikrantaha. Khatva iti abantam, khatvam atikrantaha, atyadayaha krantadyarthe dvitiyaya, iti punaha pradisamasaha. Tatrapi gaunatvat khatva iti abantasya hrasve khatva ati khatva iti bhavati. Atrapi dirghabhavat sulopaha na bhavati. So where it is nyanta or abanta, which is a dirgha, that is, which has not been shortened, there only we delete supratyaya. If it is only khatva, khatva su iti sthite lopaha bhavati, kaushambi su iti sthite lopaha bhavati, samase yadi hrasvah kriyate tatah param sulopaha na bhavati. Agrimam dirghat halnyabhyah dirghat suti si ete eva pratyaha su tip sip iti trayah eva pratyaha aprakta pratyaha svikriyante. Any other pratyaya, even if it is aprakta, will not be deleted. That is why he says abhaitsit iti udaharanam bhidhatohu lunglakare bhid lung iti sthite lunglakarasya ti pratyaye मध्ये च्लि इति भवति, च्लेः सिच् इति आदेशः क्रियते. अभिध सि स ईत् विदौट् गोयिङ्ग् इन् टु द फुल् प्रक्रिया, दिस् इस् द स्टेज् वेर् वि आर् हव् अभिध धातुः, सिच् इति प्रत्ययः, ईडागमः, तिप् प्रत्ययः. This is the tip pratyaya and this is the sich pratyaya. Now this is a pratyaya and this is ekal. Ekal pratyaya, apraktaha. This is aprakta. Right? Halah paraha, halantat param, and this is preceded by a halanta. So can we delete this sich? Is the question. So the question is, you say si. Suti si tiktate. Si ityanena kim grahyate. Sipaha eva grahanam kutaha. Sich. Can we also consider sich? Is the question. Yes. तिपा सहचरितस्य सिपः ग्रहणात् सिचः ग्रहणं नास्ति इति दीक्षिताः. यु हाव् तिप् एण्ड् वाट् कम्स् वित् तिप् इस् सिप्. सो सहचरित असहचरितयोः सहचरितस्यैव ग्रहणम् इति काचन परिभाषा विद्यते. वि हाव् परिभाषा विच् सेस् सहचरित असहचरितयोः. यु हाव् तिप् एण्ड् सिप् विच् बिलाङ्ग् टु ए कामन् सेट् एण्ड् सिच् इस् समथिङ्ग् विच् डस् नाट् बिलाङ्ग् टु दिस् सेट्. So by C, should we take sip or should we take sich? If that is the question, we always take sip only, that which comes with ti in the same set, and we do not take sich. Okay. So atra sip sipaha eva grahanam tasmad lopaha na bhavati. Even if this is halantat param, apraktam hal asti. This is aprakta, this is hal. All other conditions are satisfied, but it does not belong to su ti si. That is why there is no lopa. Abhaitsit iti udaharana. Next, apraktam iti kim. Halyabhya dirgha sutisi apraktam. Apraktam eva bhavet iti kim artham uchyate. Bibharti bhr dhatuhu latlakaraha jhotyaditva dvitvam kriyate. Bibharti ityasti halantat param ति प्रत्ययः अस्ति. सूति सि ति इत्यस्ति, हल् अस्ति, तकारः हल् अस्ति, किन्तु अपृक्तत्वं नास्ति. दिस् ति इस् नाट् अपृक्त बिकास् यु हियर् बोत् तकार एण्ड् इकार. एकाल् प्रत्ययः नास्ति, अपृक्तत्वाभावात् अत्र लोपः न भवति. द तकार इस् नाट् डिलीटेड् हियर्. ओन्ली इफ् देर् इस् ओन्ली तकार, यत्र केवलं तकारः श्रूयते, अपृक्तत्वम् अस्ति, तत्रैव सुलोपः. हल् इति किम्? हल्याभ्यः दीर्घात् सूतिसि अपृक्तं हल्. अपृक्तं लुप्यते इति कृत्वा न उच्येत. द क्वश्चन् इस् प्रश्नस्य आशयः अयं. सु प्रत्यये सर्वदा सकार एव शिष्यते, ति प्रत्यये सर्वदा तकार एव शिष्यते, सिट् प्रत्यये अपि सर्वदा सकार एव शिष्यते. वाट् इस् लेफ्ट् इन् सूतिसि इस् आल्वेस् सकार आर् तकार, विच् इस् ओब्वियस्लि हल्. इट् इस् हल् बै इट् सेल्फ्. वै डु यु स्पेसिफै that the hal will get deleted? Apraktam, if it is aprakta, it is deleted. That much is enough. Halyabhyaha dirgha sutisya apraktam. Apraktam lupyate. Ityukte eva halaha eva lopo bhavati. Punaha apraktam hal iti kimartham uchyate. Why do you specify that it has to be aprakta and also has to be hal? Because naturally sutisi is always hal. It is only the hal which gets, which remains. इन् सूतिसि बिभेद भिदधातुः लिट्लकारः. लिट्लकारस्य प्रक्रिया किञ्चित् ति इति प्रत्ययः अस्ति, प्रत्ययस्य स्थाने नल् इति आदेशः क्रियते. परस्मैपदानां नगतु सुस् इत्यादिना द ति इस् रिप्लेस्ड् बै नल्. इन् नल् नकारस्य चुटु इति यत्सम्या, लकारस्य हलन्त्यम् इति यत्सम्या लोपः, अकार एव शिष्यते. ओन्ली अ रिमेन्स् इन् नल्. नौ स्थानिवद्भावेन अयमपि तिप्रत्ययः. तिप्रत्ययस्य स्थाने आदेशः कृतः इत्यतः अयमपि तिप्रत्ययः. अकारः एक एव वर्णः अस्ति. नौ दिस् इस् अपृक्त आल्सो. दिस् इस् ति एण्ड् दिस् इस् आल्सो अपृक्त. हलन्तात् परं सूतिसि इत्येतद् अपृक्तं लुप्यते इति यदि उच्यते तर्हि अस्यापि लोपः स्यात्. हियर् आल्सो इफ् वि स्टाप् एट् अपृक्तं, हल्याभ्यो दीर्घात् सुतिस्य पृक्तम्, we do not, if Panini had not said that hal, then here also this akara should have been deleted because it is preceded by hal. This is ti and it is an aprakta, right? That is why apraktam hal. If it is aprakta and if it is hal, then only it will be deleted, right? Tadeva litlakare bhidati iti sthite परस्मैपदानां नलतसु स्थलतसु नल्वमाः इति सूत्रेण तिप्रत्ययस्य स्थाने णदादेशः लल्लिणकारस्य लकारस्य च इत्सम्य अकारः शिष्यते स्थानिवद्भावेन तिप्त्वे अस्यापि लोपः स्यात् पाणिनि हडन् टोल्ड् दट् हल् हल्ज्ञाभ्यो दीर्घासतिस्य प्रक्तं हल् इति यदि नोच्यते तर्हि अत्रापि लोपः स्यात् पुनः पृच्छति प्रथम हल् किम् इन् हल् ज्ञाभ्यः वि आलरेडि आस्ड् वै दट् ङी अण्ड् आ वै दट् हल् दिस् हल् प्रथम हल् रेफर्स् टु द हल् विच् इस् पार्ट् आफ् हल् ज्ञाभ्यः पार्ट् आफ् द वर्ड् हल् ज्ञाभ्यः The previous question was with reference to the last hal, the last word of the sutra. Hal gyabhyo dirghasatisya praktam hal. Tatra hal kimartham iti purvam prashtam. Idaniyam prachyate prathamatra hal iti kimartham. Asya prashnasya asyaha kaha. There is a hal, there is a consonant which is followed by sutisi, which is also hal. So which means there is a sanyoga. Halonantara sanyoga. When two consonants are not separated by ach, it is called sanyoga. Wherever there is a sanyoga, we can apply the sutra called sanyogantasya lopaha. Sanyogantam, sanyogantasya lopaha bhavati. Sanyogantam yatpadam, tarantasya lopaha syatiti sutrarthaha. Now, everywhere it will be sanyoganta. Right? If it is a halanta shabda, whether you take marut or rajan or even sakhan, and there is sutisi, any of these, it is always a sanyoga between two consonants. Wherever there is sanyoga, we can use sanyogantasya lopaha. So, using sanyogantasya lopaha, we can delete s, t, c, whatever it is. So, why should we have a hal here? What is the purpose of including hal in this sutra? Raja, iti dattam. Kimasti atra? Rajan, rajan, iti pratipadikam. Rajan, su, iti sthite. सर्वनामस्थाने च सम्बुद्धौ इत्यनेन उपधाधी दीर्घः राजान् सु इत्यस्ति इदानीं नौ वाट् एक्चुलि वि डू इस् वि यूस् हल्ज्ञाभ्यः टु डिलीट् दिस् हकार क्वश्चन् इस् वै यूस् हल्ज्ञाभ्यः यूस् संयोगान्तस्य सिन्स् दिस् इस् हल् दिस् इस् आल्सो हल् देर् इस् अ संयोग संयोगान्तं यत् पदं तदन्तस्य लोपः स्यात् यूसिङ्ग् दट् सूत्र वि केन् ईज़िली डिलीट् दिस् हकार वै इन्क्लूड् हल् हियर् क्वश्चन् संयोगान्तस्य लोपः इत्यनेन सकारलोपे किं भवति इट् इस् ट्रू वि केन् यूस् संयोगान्तस्य लोपः टु रिमूव् द सकार करेक्ट् एव्रिवेर् वि केन् रिमूव् बट् केन् वि रिमूव् दिस् नकार वाट् इस् द सूत्र वि यूस्ड् न लोपः प्रातिपदिकान्तस्य इत्यनेन नकारस्य लोपोऽपि करणीयः रैट् वि आल्सो हाव् टु रिमूव् द नकार बै न लोपः प्रातिपदिकान्तस्य बट् संयोगान्तस्य लोपः इस् असिद्ध टु न लोपः प्रातिपदिकान्तस्य नलोपः प्रातिपदिकान्तस्य इति सूत्रदृष्ट्या संयोगान्तस्य लोपः असिद्धः यदि असिद्धः किं भवति नकारस्य दृष्ट्या अग्रे सकारः अस्ति प्रातिपदिकसंज्ञकं यत् पदं नास्ति राजान् स इत्येव पदं यदि सकारः अस्ति तस्यैव पदान्तत्वं नकारस्य पदान्तत्वं नास्ति तदा लोपं कर्तुं न शक्नुमः इफ् वि यूस् संयोगान्तस्य लोपः टु डिलीट् दिस् सकार Since the lopa is asiddha, we will not be able to delete this nakara. If we don't delete this nakara, we don't get raja. It will remain as rajan. That is why we delete the sakara by halgyabhyo dirgha sutitsya prattam hal, which is in the shashtadhyaya. Shashtadhyayasya prathama pade asti. Tattu siddham. Nalopa pratipadikantasya knows halgyabhyaha. So it knows sakara has been deleted. And now it can operate to delete the nakara. So we get raja. Yeah? That is why Panini had to use hal. For other cases, say if it is marut su, we can delete by sanyogantasya lopaha. Or in some other cases, we can delete. But in some cases, there will be a problem because further sutras will not be able to apply since sanyogantasya lopaha would be asiddha. Nalopadihi nasyat sanyoganta lopasya asiddhatvat. Okay, so that is halnyabhyaha. We have like six dalakratyas. Halnyabhyaha iti kimartham gramanihi yatra ikaraha nyantasya ni ityasya ikaraha nasti tatra lopaha na bhavati. Dirghat iti kim nishkaushambihi ati khatvaha yatra nyantasya apasya abantasya va ह्रस्वः कृतः तत्र लोपः न भवेत्। सूतीसि इत्येतत् किमर्थं? सिच् प्रत्ययस्य लोपो न भवति, अभैत्सीत्। अपृक्तम् इति किमर्थं? यत्र ति इति पूर्णम् अस्ति, ति इति सि इति वा, तत्र लोपः न भवति, बिभर्ति, बिभर्षि इत्यादिषु। हल् इति किमर्थं? यत्र अपृक्तम् अच् अस्ति, यथा बिभेद इत्यत्र, तत्र लोपः न भवति। प्रथमः हल् किं? हल्ज्ञाभ्यः इत्यत्र हलः ग्रहणं किमर्थम्? अनेन लोपे सति अग्रे अन्यानि कार्याणि भवेयुः, संयोगान्तस्य लोपः इत्यनेन लुप्ते तु असिद्धत्वात् न भवेत् इति दृष्ट्या अत्र हल् ग्रहणम्। एनी क्वश्चन्स्? Sich is the sich is what is being considered. His question is, you can just say if it is an aprakta pratyaya, you have si, or if it can be any aprakta pratyaya, you are saying suti si, what are you taking with si? Are there are only three pratyayas. For only these pratyayas, lopa will apply. If it is any other pratyaya like sich, which is also aprikta here, you have only the sakara and there is halantat paratvam, but this will not be deleted. Because by su, ti, si here, we are considering only the su, prathamayika vachana pratyaya, ti, the ting, prathamayika vachana, parasmayipade, and si, madhyama purusha yika vachana. Only those three pratyayas are considered. Any other pratyaya will not be deleted. You have further doubts with that? Sich will come only in lung lakara. It is, when we go to tingantas, we can study that. Any other questions? So, sakha, sakhi, su, anang, sau, ityanena, anangadeshaha, sakhan, su, sarvanamasthane cha sambuddhau, ityanena, upadha dirghaha, sakhan, su, halyabhyo dirgha, satisya pratam hal, iti sulopaha, nalopah pratipadikantasya, iti nalopaha, sakha. Sambodhane kim bhavati? Anang, sau, iti na pravartate. किमुक्तं तत्र? असंबुद्धौ सौ, द अनंग आदेश विल बी अप्लाइड ओनली इफ इट इज असंबुद्धि, सुप्रत्यय नॉट संबुद्धि, दैट इज व्हाई वी डू नॉट हैव अनंग सौ। सखी, हे सखी, सु इत्यस्ति, अनंग सौ इति आदेशः न भवति चेत् किं भवति? यथा हरि शब्दे तथा ह्रस्वस्य गुणः। सो दिस सूत्र डज नॉट डिपेंड ऑन घी संज्ञा, इट डिपेंड्स ओनली ऑन ह्रस्व। सो सिंस इकारः ह्रस्वः, ह्रस्वस्य गुणः इत्यनेन इकारस्य गुणे एकारे हे सखे सु, तस्य एं ह्रस्वात् सम्बुद्धेः इत्यनेन सम्बुद्धिलोपे हे सखे इति रूपम्। सो हे सखे इज लाइक हे हरे, बट सखा इज नॉट लाइक हरि। सखा द्वितीयः औ प्रत्ययः, सखी औ अस्ति। अग्रिमं सूत्रं सख्युरसम्बुद्धौ, सख्युः असंबुद्धौ इति पदद्वयं। गोतो णित् इति सूत्रात् णित् इति अनुवर्तते अङ्गाधिकारः। दिस् इस् एन् अतिदेशसूत्र। वाट् डस् इट् टेल्? सख्युः अङ्गात् परं सम्बुद्धिवर्जम्, असम्बुद्धौ इति उक्तत्वात् सम्बुद्धिवर्जं सर्वनामस्थानं, देर् शुड् बि सम् सर्वनामस्थानं आल्सो अनुवृत्ति। This is the sutra, I'll have to look it up. there is the anuvritti of sarvanama sthana also. Just a second. Itot sarvanama sthane ityataha sarvanama sthane ityapi anuvartate. So asakhyo angat param sambuddhivarjam sarvanama sthanam nidvat syat. Nidvat, wherever you have this vat, like something, it is called an atidesha sutra. Sthanivat adeshaha analvidhau. That is one standard example. So now sarvanama sthanam nidvat bhavati. It will behave like nit. Nit namakim na it esya saha nit. Nakaraha yasmin it samyam prapnoti saha nit. Sarvanama sthaneshu nitvam nasti. Su, au, jas, am, out. None of these are nit by themselves. There is no nakara. But still, if they are following following sakhi shabda, sakhyuangat param, sambuddhivarjam sarvanamasthanam, nidvat bhavati. They will behave like nit. What do we mean by behaving like nit? If there is any karya which depends on nit. Nitvam ashritya yani karyani uktani. Panini says, if the pratyaya is nit, the prakriti will get ruddhi or it will get something. So all those karya will apply. Nitvam ashritya yani karyani vihitani tani pravartante. Kim karyam atra pravartate tisyate achoy niti iti sutram. This is a general sutra. It is not meant for sakishabda. It applies everywhere. It's a very very general sutra. Achaha initi iti chedaha niti. Mrijayar vriddhi iti sutra vriddhi iti anuvartate. Niti niti cha pare. Ajantangasya vriddhi syat. This applies everywhere. If the anga is ajanta, ending in ach, and if the pratyaya happens to be nyit or nit, nyakaraha yadi itsamyakaha or nakaraha yadi itsamyakaha, tarhi angasya vriddhi bhavati. The nyit and nit everywhere is a nimitta for vriddhi. You should remember this. As we go on, you will see that wherever the pratyaya has been made nit or nit by Panini, the purpose is to achieve a vriddhi. So niti niti cha pare achantangasya vriddhi syat. Now you have sakhi au. Au ityasya sakhyara sambuddha vityanena nidvad bhavaha. Arthad au iti idanim nit. Niti pare ajantangasya ikarantasya angasya vriddhi bhavati. Tena vriddhi bhavet. Vriddhi ityukte kim vriddhi radaich. Ashtadhyayaha prathamam sutram. Ad aich. Akara, Aikara, Aukara Yoho, Vriddhihi, iti samya. Ikarasya sthane vriddhihi, sthana samyate. Just like we decided guna, the same way, the guna for ikara is always ekara, vriddhi for ikara is always aikara. Kantha talu, talu sthana samyate, aikaraha vriddhihi. Sakhai au, achoyniti, ittanena vriddhihi bhavati. Idanim, echoyavayavaha. Ittenen ayadeshe. Ai karasya ai adeshaha sakhayau. Sakha sakhayau. Agrepe sakhayaha. Sakhi jas pratyaha. Tasyapi sakhirasam buddhau. Saranamasthana samyanasti. Sakhirasam buddhau iti nidvadbhavaha. Achoyniti iti vriddhihi. Echoyavayavaha. Ittenen ayadeshaha. Ruttvam visargaha sakhayaha. Sakha sakhayau sakhayaha. Sakhayam sakhayau. So for five. Panchasu pratyayeshu sarvanamasthana samya asti. Tatra su pratyaye pare anayadeshaha kritaha. So leaving su in all four, we have nidvadbhava by sakhira sambuddhau and vriddhi by achoyaniti followed by ayadesha. Sakha sakhayau sakhayaha. Sakhayam sakhayau. Any questions? That refers to the entire Sakhi Shabda, which will come later, I guess, from the ta, starting from ta. Wherever there is ghisamya, we did some karyas. We discussed that in Harishabda that there are three karyas which depend on ghisamya. Angonastriyam, gherniti and atsakhehe. Those sutras will not apply for sakhi shabda. Yes. That's a further one. Yeah. No, it is reference to the next. He moves on to the next one. After sakhayam sakhayo. Okay. That happens. Till you understand it, you will not know. Sometimes it happens. Any other questions? No? Astu. We'll stop here for today. Yenakshara samam nayamadhikam maheshwara kritsnam yakaranam proktam tasmai paanina ye namaha. Mulitrayan namaskritya tadukti paribhagya cha yakarana siddhanta kaumudiyam virachyate.